पवस्तमिश्वदर्शणेभि विश्वानिकाभ्या सखासखिभ्य ईड्याः ताभ्याम् विश्वस्य राजसि ये पवमानधामनि प्रतीति सोऽमतस्थतोः परिधामानि यानि दयत्नम् सोऽमासि विश्वताः पवमानऋतुभिः कवे पवस्वजनजन्निशोभि विश्वानि वार्या सखा सखिभ्य ऊतये तव शुक्रासो अर्चयो दिवस्पृष्ठे वितन्वते पवित्रम् सोमधामभिः तवेमे सप्तसिन्धवः प्रशिशम् सोमशिस्रते तुभ्यम् धावन्ति धेनवाः प्रसो मया हि धारजा सुत इन्द्राजमत्सरः दधा नो अक्षिदिश्रवाः समोत्पादेभिरस्मरणहिन्वते सप्तजामजाः विप्रमाजाभिमस्वतः व्रजन्ति त्वा समग्रवाव्ये जैरावधिष्मणि रेभोजदज्जसेवने पवमानस्य देकमेवाजेन्त्सर्गा असृक्षत अरवन्दोनश्रवस्य वाः अच्छाकोशम् मधुश्चुतमसृग्रम् वारे अव्यये अवावशन्तधीतजाः अच्छा समुद्रमिन्दवस्तङ्गावोनधेनवाः अग्मन् रथस्य जो निवा रण इन्दमहेरण आपो अर्षन्ति सिन्धवः यद्गोभिर्वासयिष्यसे अस्य ते सख्ये वयमियक्षन्तस्त्वातजः इन्दो सखित्वमश्मसे आपवस्वगविष्टये महेशो मनुचक्षसे ऐन्द्रस्य जठरे विश महाङ्कसि स मज्येष्ठ उग्राणामिन्द ओजिष्ठः यद्वासञ्छश्वजगेथ य उग्रेभ्यश्चिदोजीजाञ्छोरेभ्यश्चिच्छोरतरः भोरिताभ्यश्चिन्नम् हीजान् तम् सोऽपसोर एष स्तोकस्य सातातनो नाम् वृणीमहे सख्याज वृणीमहे जुज्याय अग्न आयोऽम् शिववसा सुवार्जमिषञ्जनः आरे बाधस्वदुच्छनाम् अग्निरशः पवमानः पाञ्चजन्यः पुरोहितः तमीमहे महागजम् अग्ने पवस्वस्वपा अस्मे वर्चस्ववीर्यम् दधद्रयिम् मजिपोषम् पवमानो अतिश्रधोऽभ्यर्षदिषष्टतिम् सोरो न विश्वदर्शदः समर्मृजान आजुभिः प्रजस्वान् प्रजसेहितः इन्दुरत्यो विचक्षणः पवमानरतम् बृहच्छुक्रम् ज्योतिरजीजनत कृष्णादमांसि जङ्घनत पवमानस्य जङ्घतो हरेश्चन्द्रा असृक्षत जीरा अजिरशो अजिषः पवमानो रथेतमः शुभ्रेभिः शुभ्रशस्तमः हरिश्चन्द्र मरुद्गणः पवमानोऽव्यष्टवद्रश्मिभिर्वाजसातमः दधत्स्तोत्रे सुवीर्यम् प्रसुमान इन्दुरक्षाः पवित्रमत्यव्ययम् पुनान इन्दुरिन्द्रमा एष सोमो अधित्वजिगवा अङ्ग्रेणत्यद्रिभिः इन्द्रम् मदा जजोहुमत यस्य ते द्युम्नवत्मजः पवमानाभृतम् दिवः तेन नामृणजीवसे